प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं
पर्वते रघुनन्दनं गमने वामनं चैव सर्वकार्येषु माधवम्
Oh,